येषां स एव भगवान् दयये धनन्तः सर्वात्मना श्रितपदो यदि निर्व्यलीकम् ते दुस्तरा मतितरन्ति च देवमाया नान्ये ममाहमिति धी श्वशृगालभक्षे।